यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यभोषत यस्य शुष्माद्रोदसी अभ्यसेतान् रम्णस्य मह्ना सजना स इन्द्राः यः पृथिवीम् व्यथमानामद्रम् हद्यः पर्वतान् प्रकुपितोऽ अरम् नात् यो अन्तरिक्षम् विममे परी योजोद्यामस्तभ्रात् स जना स इन्द्राः यो हत्वा हि मरणात् सप्त सिन्धोन् योगा उदा जदपधा फलस्य यो अश्मनोरन्तरग्निम् जजान संवृक्षमत्सु स जना स इन्द्राः येनेमा विश्वाच्यमनाकृता निजोदा संवर्णमधरङ्गुहाकाः शघ्ने भजो जगेवाल्लक्षमाददर्यः पुष्टानि स जना स इन्द्राः यं स्मा पृच्छन्ति गुहसेति घोरमुते मा हुर्नैषो अस्तीत्येनम् सो अर्यः पुष्टेर्विज इवामिनादिश्वदस्मै धत्त स जना स इन्द्राः यो रध्रस्य चोदितायः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः युक्तग्राव्णो यो पिता सुषिप्रस्वत सोमस्य स जना स इन्द्राः यस्याश्वासः प्रदिशिजस्य गावोजस्य ग्रामाजस्य विश्वे रथासः यः सोऽर्यञ्ज उषसम् जजानजो अपान्नेता स जना स इन्द्राः यं ग्रन्थसी संयति विह्वजे ते परे वर उभजा अमित्राः समानम् चिद्रथमादस्थिवाम् सानाना हवेते स जना स इन्द्राः यस्मान्नरते विजयम् ते जना सोऽजञ्जुध्यमाना अवसे हवन्ते यो विश्वस्य प्रतिमानम् बभो भजो अच्युदच्युत्स जना स इन्द्राः यः शश्वतो मह्येनो दधा नानमन्यमानाञ्छर्वा जघान यः शर्धते नानुदधाति श्रद्धायो दस्योर्हन्ता स जना स इन्द्राः यः शम्बरम् पर्वतेषु क्षियन्तम् चत्वारिंश्याम् शरद्यन्वविन्दत ओजाजमानञ्जो अहिञ्जघनदानुम् शजानम् स जना स इन्द्राः यः सप्तरश्मिरवृषभस्तु विश्मानवासृजत्सर्तवे सप्त सिन्धोन यो रोहिणमस्फुरद्वज्रमाहुर्द्यामारोहम् तम् स जना स इन्द्राः द्यावाचिदस्मै पृथिवी न मेते शुष्माच्चिदस्य पर्वता भजन्ते यः सोमपानिचितो वज्रबाहुर्यो वज्रहस्तः स जना स इन्द्राः यः सुन्वन्तमवतिजः पचन्तञ्जशंसन्तञ्जः शशमानभूति यस्य ब्रह्मवर्धनम् यस्य सोमोजस्येदम् राधः स जना स इन्द्राः यः स्वन्वते पचते दुध्र आचिद्वाजम् दर्दर्शि स किलासि सत्यः भजन्त इन्द्रविश्वः प्रजासः सुवीरा सो विदधमापदेवा